सापितर सिद्धा यक्षरक्षंसि किन्नरः सद्यविद्याधरा भूता मनुष्या पशव खगः समुद्रः सरितः शैला भूतं भव्य भवोद्भवः सांख्यं पातञ्जलयोगः पूरणानि श्रुतिस्मृतिः वेदाङ्गानि सदाचारो मीमांसा न्याय विस्तरः आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकं वैखानसं भागवतं शाश्वतं पञ्चरात्रकं शैवं पाशुपतं कालामुखं भैरवशासनं शाक्तं वैनायकं सौरं जैनमार्हत संहिता सदा सद्व्यक्तम अव्यक्तं सचेतानं अचेतनं बन्धो मोक्ष्य सुखं भोगो योग सत्यमणुर्महान् स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् भौषड् वसड् नमः ज्ञानं विज्ञानमानन्दो बुधः संविच्छमो यमः एक एकाक्षराधार एकाक्षर परायणः एकाग्र धीरे कबीर एकनेक स्वरूप ध्रुव द्विरूपो द्विभुजो द्विक्षो द्विरदो द्विपरक्षकः द्विमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः त्रिधामातृकरस्त्रेता त्रिवर्गफलदायकः त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तिसस्त्रिलोचनः चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः चतुर्विध वचो ब्रूति परिब्रूति प्रवर्तकः चतुर्थी पूजन प्रीतश्चतुर्थी तिथि संभवः पञ्चाक्षरात्मा पञ्चात्मा पञ्चस्य पञ्चकृत्यकृत् पञ्चधारः पञ्चवर्णः पञ्चक्षर परायणः पञ्चतालः पञ्चकारः पञ्चप्राणवभावितः पञ्चब्रह्ममय स्फूर्ति पञ्चवरणवारितः पञ्चभक्ष्य प्रियः पञ्चबाणः पञ्चशिवात्मकः षट्कोणपीठ षट्चक्रधाम षड्ग्रन्थिभेदकः षडध्वध्वान्तविध्वंसी षडङ्गूल महाद्रदः षड्मुख षड्मुख भ्राता षट्शक्ति परिवारितः षड्वैरी वर्ग विध्वंसी षडुर्मी भयभञ्जनः षट्तर्क दूर षट्कर्म नीरतः षड्रसाश्रयः सप्तमाताल चरणः सप्तद्वीपोरुमण्डलः सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः सप्तछन्दोनिधि सप्त होत सप्त स्वराश्रयः सप्तभिकेलिकासारः सप्तमातृनिसेवितः सप्तछन्दो मोदनादः सप्तछन्दो मखप्रभु अष्टमूर्ति ध्येयमूर्तिरष्टप्रकृतिकारणम् अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः अष्टशक्ति समृद्ध श्रीरष्टिशौर्यप्रदायक अष्टपीठोपपीठ श्रीरष्टमातृसमावृतः अष्टभैरवसेभ्योऽष्ट वसुबन्ध्योऽष्टमूर्तिभृत् अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविप्रियः नवनागासनाध्यासी नवनिध्यनुशासितः नवद्वारपुराधारो नवधारनिकेतनः नवनारायणस्तुत्यो नवदुर्गानिसेवितः नवनाथ महानाथो नवनागविभूषणः नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृत् दशात्मको दशभुजो दशदिक्पतिवन्दितः दशाध्यायो दशप्राणो दशेन्द्रियनियामकः दशाक्षर महामन्त्री दशशाव्यापि विग्रह एकादशादिभिरुद्रे स्तुत एकादशाक्षरः द्वादशो दण्ड दुर्दण्डो द्वादशान्तनिकेतनः त्रयोदशाविदा भिन्न विश्वदेवाधिदैवतम् चतुर्दशेन्द्रवरदश्चतुर्दश मनुप्रभुः चतुर्दशादिविद्याढ्यश्चतुर्दश जगत्प्रभुः साम पञ्चदशः पञ्चदशी शीतांशुनिर्मलः षोडशाधारनिलयः षोडश स्वरमातृकः षोडशान्तपदावासः षोडशेन्दुकलात्मकः कला सप्तदश षोडशी सप्तदशः सप्तादशाक्षरः अष्टादश द्विपपतिरष्टादश पुराणकृत् अष्टादशौ सधि सृष्टिरष्टादश विधिस्मृतः अष्टादश लिपिव्यष्टि समष्टि ज्ञानकोविदः एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः चतुर्विंशति तत्त्वात्मा पञ्चविंशाख्यपुरुषः सप्तविंशति तारेशः सप्तविंशति योगकृत् द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत् कलातनुः नवदेवोन पञ्चाशन्मरुद्वर्गनिरखलः पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः पञ्चाशद्विष्णुशक्तिशः पञ्चाशन्मातृकालयः द्विपञ्चाशद्वपुः श्रेणी त्रिषष्ट्यक्षरसंशयः चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः चतुःषष्टिमहासिद्धा योगिनी वृन्दवन्दितः अष्टषष्टिमहातीर्था क्षत्रभैरवभावनः चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः शतानन्दः शतधृतिः शतपत्रायते क्षणः शतानीकः शतमाखः शरधारावरायुधः सहस्रपत्रनिलयः सहस्रफणभूषणः सहस्रशिष्यपुरुषः सहस्राक्ष सहस्रपात् सहस्रनाम संस्तुत्य सहस्राक्षवलापः दशसाहस्रफणभृत्फणिराजकृताशनः अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः लक्षधीशप्रियाधारो लक्षधारमनोमयः चतुर्लक्ष्यजपप्रीतश्चतुर्लक्ष्यप्रकाशितः चतुरशीतिलक्षाणं जीवनां देहसंस्थितः कोटिसूर्यप्रतिकाशः कोटिचन्द्रांशुनिर्मलः शिवभवाधुश्चकोटिविनयकधुरन्धरः सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः त्रयस्त्रिंशत्कोटिसूरश्रेणीप्राणतपादुकः
भावना समर्चना
भाति श्रवणश्चराचर गुरो स्तोत्रं गणेशाष्टकं शुद्ध संयत चेतसा यदि पठे नित्यं त्रिसंध्यं पुमान् तस्य श्रीरतुला स्वसिद्धि सहिता श्री शारदा सर्वदा स्यातां तत्परिचारिके किल तदा का कामनानां कथा।
जय गणेश। जगी पार्वती पिता महादेवा, माता जगी पार्वती पिता महादेवा।